सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं श्लोकं वदामि। नास्ति विद्यासमो बन्धुः, नास्ति विद्यासमो सुहृद्, नास्ति विद्यासमं वित्तं, नास्ति विद्यासमं सुखम्। इत्युक्ते विद्यया सदृश्यं मित्रं, धनम् अपि च बन्धुः एव नास्ति। सुभाषितकारः अत्र इतोपि अग्रे गत्वा वदति विद्ययातुल्यं सुखमेव नास्ति। इमं विषयम् अस्मान् सुभाषितकारः बोधयति, परन्तु एतत् सत्यं वा? विद्ययातुल्यं सुखं नास्ति वा? विद्या कथं सुखं ददाति इत्यस्मिन् विषये किञ्चित् चिन्तनं कुर्मः चेत् एतत् सत्यम् इति वयम् अवगन्तुं शक्नुमः। कथम् इत्युक्ते विद्यया सदा नूतनान् विषयान् ज्ञातुं शक्नुमः, तान् विषयान् ज्ञात्वा तेन आनन्दं प्राप्तुं शक्यम्। विद्यया मित्रं, धनम् अपि च बन्धून् सम्पादयितुं शक्यं, परन्तु तत्तु अधिलाभांशः इत्युक्ते बोनस् इति वदामः। परन्तु विद्यार्जनाय अस्माकं कृते भाषायाः अवगमनम् आवश्यकम्। अतः वयम् अधुना संस्कृतभाषाम् अध्येतुं प्रयत्नं कुर्मः। तदर्थं भवन्तः सर्वे प्रयत्नशीलाः इति अहं चिन्तयामि। सम्यक्, अधुना वयं किं कुर्मः इत्युक्ते गतमङ्गलवासरे वयं द्वितीयविभक्तेः विषये किञ्चित् वयम् अधीतवन्तः, अपि च विद्यालयः नाम्ना एकं लेख्यबन्धं पठित्वा द्वितीयविभक्तेः विषये किञ्चित् वयम् अवगतवन्तः। अपि च अहं किञ्चित् गृहपाठमपि प्रेषितवती। गृहपाठं कृतवन्तः वा भवन्तः? गृहपाठविषये अत्र लक्ष्मीभगिनी भवती वदतु, गृहपाठः किम् आसीत् अत्र?
पञ्च सर्वनामपद उपयुक्त वाक्यं कुर्मः।
वाक्यरचना करणीयं। भवती लिखितवती वा?
किञ्चित्
श्रावयतु।
एतत् पुस्तकम् अहं पठामि। एतत् संस्कृतं पुस्तकम् अस्ति।
एतत्
दट् इस् फस्ट् पर्सन्, द सेकेण्ड् वन् वास् द्वितीयविभक्ति।
उत्तमम्। एतत् संस्कृतपुस्तकम् अस्ति, एतत् संस्कृतं पुस्तकं पठामि। उत्तमम्। अन्यानि वाक्यानि?
एतानि पुष्पाणि सुन्दराणि सन्ति।
उत्तमम्।
लता एतानि पुष्पाणि इच्छति।
भगिनी, अत्र एतानि पुष्पाणि सुन्दराणि सन्ति इति वाक्यम्, अस्मिन् वाक्ये पदानि, सर्वाणि पदानि कस्मिन् विभक्तिः का तत्र? कस्यां विभक्त्यां? प्रथमा विभक्ति। तत्र कर्मपदम् अस्ति वा? एतानि पुष्पाणि सुन्दराणि सन्ति इत्यस्मिन् वाक्ये कर्मपदम् अस्ति वा?
पुष्पाणि।
तस्मिन् वाक्ये कर्मपदं नास्ति।
कर्मपदं नास्ति।
किमर्थं, कथं वक्तुं शक्नुमः? तत्र सन्ति तत्र अस् धातुः न कदापि कर्मपदं स्वीकरोति, अतः एव तत्र कर्मपदं नास्ति। परन्तु वाक्यं तु समीचीनमेव, परन्तु तस्मिन् वाक्ये केवलं कर्मपदं नास्ति। कर्मपदम् अपि योजयित्वा तदेव वाक्यं पुनः लिखतु, पुनः वदतु।
आ, एतानि एतानि पुस्तकानि
तदेव वाक्यं भगिनि तदेव वाक्यं तत्र पश्यतु भवती सम्यक् करोति चेत् करोतु नो चेत् कोऽपि तदेव वाक्यं समीकरोतु एतानि पुष्पाणि सुन्दराणि सन्ति इति वाक्ये कर्मपदं नास्ति परन्तु कर्मपदं योजयित्वा अपि वक्तुं शक्नुमः कथं कादम्बरी भगिनी वदति वा तत्र कर्मपदं योजयित्वा वदतु वाक्यं किञ्चित् समीकृत्य लक्ष्मी भगिनी भवती चिन्तयतु कादम्बरी भगिनी वक्तुं शक्नोति वा नो चेत् अत्र सुचित्रा भगिनी भवती वदति वा अहं वदामि अत्र लक्ष्मी भगिनी भवती कर्तुं सुचित्रा भगिनी वदतु अत्र वक्तुं शक्नोति चेत् अत्र अत्र वाक्यमस्ति वाक्यं किं लक्ष्मी भगिन्या लिखितं वाक्यमस्ति तत् किम् एतानि पुष्पाणि सुन्दराणि सन्ति वाक्यम् उत्तमं वाक्यं परन्तु तत्र कर्मपदम् अपि योजयित्वा वक्तव्यम्
एतानि पुष्पाणि सुन्दरम् अस्ति ओके
सुन्दराणि सन्ति किमर्थं पुष्पाणि बहुवचनम् अतः एतानि पुष्पाणि सुन्दराणि सन्ति वाक्यं समीचीनम्
कर्मपदं नास्ति ओके सीतायां हस्ते एतानि पुष्पाणि सुन्दरम्
अत्र लक्ष्मीभगिनी अत्र पश्यतु अधातुः अस्धातुतः अस्ति अथवा सन्ति इति पदानि पदद्वयम् आगच्छति परन्तु स्वीकरोति योजयित्वा वदतु तदेव वाक्यम्
एतानि पुष्पाणि स्वीकरोतु
उत्तमम् अधुना किञ्चित् चिन्तयतु अधुना चिन्तयतु अस्मिन् वाक्ये कर्मपदम् अस्ति वा नास्ति वा स्वीकरोतु इति क्रियापदं परन्तु अस्मिन् वाक्ये किं स्वीकरोतु पुष्पाणि स्वीकरोतु तस्मिन् वाक्ये कर्मपदं किं
पुष्पाणि
उत्तमम् अधुना इतोपि अन्यानि वाक्यानि श्रावयतु
अहं संस्कृतं पठामि मां पुस्तकं ददातु
अत्र सर्वनामपदमपि योजयित्वा वदतु
अहं संस्कृतं पठामि रैट्
तत्र सर्वनामपदं योजयितुं शक्यं वा न वा अहं संस्कृतं पठामि अहं संस्कृतं पठामि तस्मिन् वाक्ये कर्मपदमस्ति वा
संस्कृतम्
उत्तमं तत्र सर्वनामपदमपि योजयितुं शक्यं वा न वा
अहम् सर्वनामपदं
तमेव परन्तु अहं कर्मपदम् इत्युक्ते प्रथमं वाक्यं भवती उक्तवती एतानि पुष्पाणि स्वीकरोतु तत्र एतानि इति पदं पुष्पाणि इत्यस्य विशेषणम् अपि च सर्वनामपदम् तथा सर्वनामपदं योजयितुं शक्यं वा तत्र न तत्र केवलम् अहं संस्कृतं पठामि तत्र सर्वनामपदं योजयितुं न शक्यम् अन्यं वाक्यम् अन्यानि वाक्यानि श्रावयतु
वयं भारतदेशं गच्छामः
कर्मपदसहितवाक्यम् उत्तमम् अपि च
देवः अस्मान् रक्षतु.
देवः अस्मान् रक्षतु. उत्तमं.
कः
किञ्चित् उच्चैः वदतु.
कः विद्यालयं गच्छति?
कः विद्यालयं गच्छति? उत्तरं वदतु. तस्य उत्तरं किम्? भवती किम् उक्तवती? कः उद्यालयं विद्यालयं गच्छति? तदेव वा? पुनः तदेव वाक्यं वदतु.
कः विद्यालयं गच्छति?
कः विद्यालयं गच्छति? तत्र उत्तरं किम्?
एतत् विद्यालयं गच्छति.
तथा वक्तुं शक्नोति वा? कः विद्यालयं गच्छति? तत्र उत्तरं किं भवति? राजीव् सिङ्ग् महोदय, भवान् वदतु. कः विद्यालयं गच्छति इति प्रश्नं पृच्छामश्चेत् तत्र उत्तरं किं भवति?
एषा विद्यालयं गच्छति.
उत्तमम्. एषः विद्यालयं गच्छति. तत्र एकं नामपदमपि योजयतु. नामपदं योजयित्वा वदतु. Add a noun to that sentence.
Rajini vidyalayam gachyati.
Uttamam. Athva eshaha balakaha vidyalayam gachyati. Api cha atra vidyalayaha iti padam dvitiya vibhakto vidyalayam iti bhavati. Tatra ekam sarvanama padam api yojayatu. Eshaha balakaha एतं विद्यालयं गच्छति. एतं विद्यालयं गच्छति इत्युक्ते किम्? एषः बालकः एतं विद्यालयं गच्छति अथवा बालकः एतं विद्यालयं गच्छति. अत्र इत्युक्ते सर्वनामपदमपि योजयित्वा कर्मपदसहितवाक्यानि तथा रचनीयानि. अपि च भगिनि, भवत्याः पार्श्वे इतोपि वाक्यानि सन्ति वा?
न भगिनि.
उत्तमम्. अन्येषां पार्श्वे वाक्यानि सन्ति चेत् श्रावयन्तु. कादम्बरी भगिनि, भवत्याः पार्श्वे वाक्यानि सन्ति वा? न. अत्र सुचित्रा भगिनि,
सः किमर्थं देवालयं गच्छति? सः देवस्य अर्चनार्थं देवालयं गच्छति.
देवस्य अर्चनार्थं देवालयं गच्छति. उत्तमम्. तस्मिन् वाक्ये भगिनि, तस्मिन् वाक्ये कर्मपदं किम्?
कर्मपदं इस् देवालयम्.
उत्तमम्. अन्यानि वाक्यानि?
ऐ जस्ट् मेड् अ सिम्पल् सेण्टेन्स्. सा किं पश्यति? सा गजं पश्यति.
उत्तमम्. अपि च तत्र अन्यं पदमपि योजयित्वा वदतु. अत्र सर्वनामपदमपि योजयित्वा वदतु. सा अनन्तरं गजं पश्यति.
सा किं पश्यति? सा सर्वनामपदं. किं किं वाट्?
अत्र अत्र सा तं गजं पश्यति.
सा ओके सा तम् ओके या तं गजा गजं सो गजा गजानां
न न भगिनि अत्र अस्माकं गृहपाठः कः इत्युक्ते सर्वनामपदम् अपि योजयित्वा कर्मपदसहितवाक्यानि रचयतु इत्युक्ते अस्मिन् यद्भवती उक्तवती तत्तु सम्यक् एव सा गजं पश्यति तत्तु उत्तमं वाक्यं परन्तु तत्र सर्वनामपदं सा तं गजं पश्यति अहं तां लेखनीं स्वीकरोमि अहं तं गजं पश्यामि इति वक्तव्यम् इत्युक्ते तस्मिन् वाक्ये सर्वनामपदमस्ति अपि च कर्मपदमपि अस्ति एतादृशः अभ्यासः सम्यक् भवति दिस् कैण्ड् आफ् प्राक्टिस् नो इट् रियलि हेल्प् इति अन्यानि वाक्यानि श्रावयतु
I just wrote only two, then I did the other homework for me, Vidyalayam. Should I read on the Vidyalayam? Vidyalaya? Okay. Mama Vidyalayam Madras Nagare Bharata Varshe Asti Tat Vidyalayam This...
Bhagini, Tadeva Vakyam Punha Vadattu Tadeva Vakyam Vadattu
मम विद्यालय विद्यालयं
तत्र पदमस्ति विद्यालयः मम विद्यालयः
मद्रास् नगरे भारतवर्षे अस्ति
भारतदेशे अस्ति मम विद्यालयः मम विद्यालयः भारतदेशे मद्रास् नगरे अस्ति
ओके द अदर वे अराउंड ओके तत् तत् विद्यालयं विस्तीर्णमार्गे अस्ति
तत्र तत् विद्यालयम् इति सम्यक् वा तत्र
तत् विद्यालयः
तत्र पश्यतु भगिनि विद्यालयः पुंलिङ्गपदं पुंलिङ्गपदात् पूर्वं सर्वनामपदमपि पुंलिङ्गे एव भवतु
ओके ओके सः ओके सः सः विद्यालयः विस्तीर्णमार्गे अस्ति
सः विद्यालयः विस्तीर्णमार्गे अस्ति परन्तु अस्मिन् वाक्ये अपि कर्मपदं नास्ति परन्तु कर्मपदसहितवाक्यमेव रचनीयम् अस्माकं गृहपाठः तदेव यद् भवती उक्तवती तद् वाक्यं समीचीनमेव तद् सः विद्यालयः विस्तीर्णमार्गे अस्ति किमपि परन्तु तस्मिन् वाक्ये कर्मपदं नास्ति
सः संस्कृतविद्या
तत्रैव भगिनि तत्र एव कर्मपदमपि योजयित्वा वदतु
अहं संविद्यालयं विस्तीर्णमार्गे अस्ति
न अहं तं विद्यालयं गच्छामि अथवा अहं तं विद्यालयं पश्यामि
विद्यालयम् ओके
अहं तं विद्यालयं तत्र यद् भवती किम् उक्तवती मम विद्यालयः मद्रास् नगरे अस्ति उत्तमम् अनन्तरम् अहं तं विद्यालयं गच्छामि अथवा अहं तं विद्यालयं गतवती अथवा अहं तं विद्यालयं गत्वा विद्यालयं पश्यामि तस्मिन् वाक्ये अस्मिन् वाक्ये कर्मपदम् अस्ति तथा अनन्तरं शङ्करन् महोदय भवान् वदति वा अत्र कर्मपदसहितवाक्यं
प्रयत्नं करोमि भगिनि अहं क्षीरं पिबामि
सर्वनामपदमपि योजयित्वा महोदय अत्र सर्वनामपदमपि योजयित्वा तदेव वाक्यं वदतु
अहं सर्वनामपदं क्षीरं कर्मपदं पिबति क्रियापदं पिबामि.
तत्र क्षीरं क्षीरम् इत्यस्य सर्वनामपदं, तस्य कृते अन्यं सर्वनामपदमपि योजयित्वा वदतु.
सः सम्यक् कार्यं करोति.
न न महोदय, अत्र भवान् अहं क्षीरं पिबामि इति वाक्यं समीचीनं वाक्यं, परन्तु किं क्षीरं पिबामि तत्र सर्वनामपदं योजयित्वा वदतु.
वयं क्षीरं पिबामः.
बहुवचने वाक्यम् उत्तमं, परन्तु अहं तत् क्षीरं पिबामि.
ओ आमां भगिनि, अहं तत् क्षीरं पिबामि.
अस्मिन् वाक्ये
अहं तत् आम्रफलं खादामि.
अहं तत् आम्रफलं खादामि. तत् आम्रफलं खादामि. उत्तमं.
खादामि. अहं तन्नदीतीरे वसामि.
पुनः वदतु महोदय.
अहं तत् नदीतीरे वसामि.
नद्याः तीरे वसामि. नद्याः तीरे.
ओ नद्याः तीरे वसामि.
तत्र नदीशब्दस्य षष्टिरूपम् उक्तवान् भवान्. नद्याः तीरे वसामि. तस्याः नद्याः तीरे. इत्युक्ते सर्वनामपदमपि योजयित्वा वदतु.
अहं भाषणं करोमि.
न तदेव वाक्यं महोदय. पूर्वस्मिन् वाक्ये सर्वनामपदं योजयतु.
सर्वनामपदं.
अहं
नद्या धीरे तत् नद्या धीरे वसामि.
तस्याः नद्याः तीरे वसामि.
ओ तस्याः तत् नद्या.
तत् न भवति महोदय. किमर्थम् इत्युक्ते तत्र नद्याः नदी नद्याः षष्टिविभक्तेः रूपं, तस्मात् पूर्वं सर्वनामपदमपि षष्टिविभक्तौ एव
वक्तव्यम्.
अनन्तरं
तत् वयं कुर्मः.
तत् इत्युक्ते किं? तत् वयं तत् कुर्मः इति उक्तवान् भवान्. तत् इत्युक्ते किं?
तत् दट् that particular thing we are.
Tatra nama padam.
We are all. Nama padam.
Tatra. Anyam karma padam api yojayitva vajatu tadeva vakyam. Vayam tat kurmaha. Tat ichukte tatra.
Tatra. Ramayana patitam. Vayam kurmaha.
इत्युक्ते वयं तत् रामायणपठनं कुर्मः. तत् रामायणपठनं
कुर्मः. अथवा वयं बहिरेव आसम्
बहिः एव
वयं बहिरेव आसम्.
अहम् आसम्.
वयम् अहं नहि न अहं भगिनि वयं.
तत्र बहुवचने वदतु महोदय. तत्र अहं किम् उक्तवती अत्र पश्यतु अहं किम् उक्तवती इत्युक्ते तत्र कर्मपदं कर्मपदं नास्ति योजयित्वा वदतु भवान् चिन्तयतु महोदय अहम् अन्यं पृच्छामि किञ्चित् म्यूट् करोमि बहु ध्वनिः अस्ति क्षम्यताम् अत्र सुब्बाराव महोदय भवान् वदति वा अत्र भवतः पार्श्वे वाक्यानि सन्ति चेत् श्रावयतु
गुरुः अस्मान् प्रश्नान् पृच्छन्ति
गुरुः अस्मान्
प्रश्नान् पृच्छन्ति
किमर्थं पृच्छन्ति महोदय अत्र कर्तृपदं किं
गुरुः
गुरुः इति कर्तृपदम् एकवचने अस्ति तदर्थं क्रियापदमपि
पृच्छति
उत्तमम् अधुना वदतु तदेव वाक्यम् अधुना वदतु
गुरुः अस्मान् प्रश्नान् पृच्छति
अत्र प्रश्नं वा एकवचने वक्तुमिच्छति वा बहुवचने वक्तुमिच्छति वा भवान्
बहुवचनं प्रश्नां
बहुवचने वक्तुमिच्छति चेत् तत्र द्वितीयाविभक्ति बहुवचनं किं भवति प्रश्नः इति प्रदर्श्य बहुवचनरूपं किं भवति कोऽपि जानाति वा अत्र प्रश्नान्
प्रश्नान्
प्रश्नान् अधुना पूर्णं वाक्यं वदतु
गुरुः अस्मान् प्रश्नान् पृच्छति
उत्तमम् अधुना सम्यक् वदतु इतोपि इत्युक्ते किमर्थं तथा तत्र वयं समीकृत्य पुनः वाक्यं लिखामः किमर्थं तथा इत्युक्ते अधुना वयं कर्तरीप्रयोगे वाक्यरचनां कुर्मः वि आर् आल् यूसिङ्ग् द आक्टिव् वाय्स् रैट् नौ इन् द आक्टिव् वाय्स् द कर्तृपदम् इस् डैरेक्ट्लि रिलेटेड् टु द क्रियापदम् देर् इस् रिलेशन्शिप् बिट्वीन् द कर्तृपदम् अण्ड् क्रियापदम् अतः एव गुरुः पृच्छति परन्तु किं पृच्छति प्रश्नं पृच्छति अथवा प्रश्नान् पृच्छति कान् पृच्छति अस्मान् पृच्छति अतः गुरुः अस्मान् प्रश्नान् पृच्छति तत्तमं वाक्यम् अन्यं वाक्यं श्रावयतु
वयम् उत्तराणि लिखामः
उत्तमं तत्र सर्वनामपदं योजयतु वयं
एतानि उत्तराणि लिखामः
उत्तमम् एतानि उत्तराणि लिखामः उत्तमं वाक्यम्
एषा रोटिकां खादति
एषा रोटिकां खादति तत्रापि सर्वनामपदं योजयतु
एषा एषा
तत्र रोटिका रोटिकाम् इति तत्र तस्मिन् वाक्ये रोटिकाम् इति पदं कर्मपदं तत्र एव अन्यं सर्वनामपदमपि योजयतु अत्र एषा तत्र कर्तृपदं तस्मिन् वाक्ये कर्तृपदम् एषा एव वा भवान् एषा एतां रोटिकाम्
एषा एतां रोटिकां खादति
खादति एषा एषा बालिका एतां रोटिकां खादति अत्र बालिका अस्ति एषा बालिका तत्तु तस्मिन् वाक्ये कर्मपदं नास्ति एषा बालिका अस्ति परन्तु एषा बालिका रोटिकां खादति परन्तु कां रोटिकां खादति एतां रोटिकां खादति इत्युक्ते अस्मिन् वाक्ये सर्वनामपदमस्ति अपि च कर्मपदमपि अस्ति उत्तमम् अन्यं वाक्यं
सा कारयानं चलति
चालयति
चलति इति नाट् ओके
न महोदय किमर्थमित्युक्ते अत्र अहं चलामि अहं पादाभ्यां चलामि ऐ एम् वाकिङ्ग् अहं पादाभ्यां चलामि वित् मै टु लेग्स् ऐ एम् वाकिङ्ग् परन्तु अहं कारयानं चालयामि
चालयामि
उत्तमम् अधुना वदतु
सा एतत् कारयानं चालयति
उत्तमम् एतत् कारयानं चालयति सा महिला सा महिला एतत् कारयानं चालयति अनन्तरं
मम पुत्रः दूरदर्शनं पश्यति
तत्रापि सर्वनामपदं योजयति
मम पुत्रः
उत्तमं तदेव तदेव वदतु
मम पुत्रः एतत् दूरदर्शनं च पश्यति
उत्तमम् इत्युक्ते तस्मिन् वाक्ये मम पुत्रः एतत् दूरदर्शनं पश्यति अस्मिन् वाक्ये तत्र एतत् वा अथवा दूरदर्शनं वा नपुंसकलिङ्गपदद्वयं परन्तु नपुंसकलिङ्गे प्रथमाविभक्ति अपि च द्वितीयाविभक्त्यन्त रूपाणि समानानि तदर्थं वयं तथा तत्र पार्थक्यं न द्रष्टुं शक्नुमः वि केनाट् डिफ्रेन्शियेट् परन्तु अस्मिन् वाक्ये एतत् दूरदर्शनं इति पदद्वयं द्वितीयविभक्तौ अस्ति वाक्यं समीचीनम् उत्तमम् अन्यं वाक्यं वदतु महोदय
मम ग्राम उन्नतविद्यालयः दशाधिकशतवर्ष भवति
अत्र पुनः एकवारं क्रियापदं किं महोदय तत्र
भवति
भवति भूधातुः अकर्मकधातुः तत्रापि कर्मपदं न भवति अपि च प्रथमं तत्र मम पुनः एकवारं श्रावयतु तदेव वाक्यं
मम ग्राम उन्नतविद्यालयः मम ग्राम उन्नतविद्यालयः दशाधिकशतवर्ष भवति
मम ग्राम उन्नतविद्यालयः अस्तु अत्र समासः अस्ति परन्तु मम ग्रामे यः उन्नतविद्यालयः अस्ति तत्तु कति वर्षीयाः
दशाधिकशतवर्षः
अस्तु परन्तु तस्मिन् वाक्ये कर्मपदं नास्ति भवान् अवगतवान् वा अत्र कर्मपदं नास्ति इत्युक्ते गते सप्ताहे अहं के अत्र पश्यन्तु सर्वे पश्यन्तु अत्र गते सप्ताहे अहं किम् उक्तवती यदि वयं किम् इति प्रश्नं पृच्छामश्चेत् तत्र उत्तरं मिलति चेत् तस्मिन् वाक्ये कर्मपदमस्ति यदि उत्तरं न मिलति चेत् तत्र कर्मपदं नास्ति इति अर्थः इति अहं पूर्वस्मिन् सप्ताहे अहम् उक्तवती कथम् अहं पश्यामि इत्यस्मिन् वाक्ये अहं कं किं पश्यामि अहं गजं पश्यामि परन्तु अहं कं गजं पश्यामि अहं तं गजं पश्यामि अस्मिन् वाक्ये यदि किम् इति किं पठामि किं शृणोमि किं खादामि अथवा कुत्र गच्छामि इति प्रश्नं पृच्छामश्चेत् तत्र किम् इत्यस्य उत्तरं मिलति चेत् तस्मिन् वाक्ये कर्मपदं सम्भवति नो चेत् न अन्यं वाक्यं श्रावयतु तावदेव
वा
धन्यवादः उत्तमानि वाक्यानि श्रावितवान् भवान् उत्तमं महोदय धन्यवादः अनन्तरं राजीव् महोदय भवान् वदतु लक्ष्मीभगिनी अस्तु महोदय लक्ष्मीभगिनी भवती वदति वा इतोपि वाक्यानि सन्ति चेत् नो चेत् अस्ति वा वाक्यं?
न, न भगिनि.
अस्तु अस्तु. अत्र कादम्बरी भगिनी अस्ति इति भाति भगिनी, अस्ति वा अत्र? अत्र 240-252-8116 कस्याः दूरवाणीसङ्ख्या? 240-252-8116.
अयम् उमा भगिनी.
ओ अस्तु भगिनि. भवती अपि वक्तुं शक्नोति वा?
न भगिनि.
केवलं शृणोति वा? प्रयत्नं किञ्चित् प्रयत्नं करोतु भगिनि. अस्तु. अधुना इत्युक्ते अनेन अभ्यासेन बहु लाभः भवति. इत्युक्ते अस्मिन् वाक्ये सर्वनामपदानि अपि च कर्मपदमपि योजयित्वा वयं किञ्चित् अभ्यासं कृतवन्तः. अनेन अभ्यासेन बहु लाभः भवति. अनन्तरं भवतां पार्श्वे यदि मम विद्यालयः इत्यस्मिन् विषये वाक्यानि सन्ति चेत् श्रावयन्तु. मै स्कूल् इत्यस्मिन् विषये पञ्चवाक्यानि लिखन्तु इति अहं गृहपाठं प्रेषितवती. श्रावयन्तु. कः श्रावयति अधुना? अत्र सुब्बरमहोदय, भवान् एव करो. सुचित्रा भगिनी करोतु.
Bhagini, I did the homework, but you're saying it is all wrong, so I didn't understand what was expected out of the homework. Like, you know, you said to write 4 sentences on your school, okay, but I'm not able to...
Nana Bhagini, Bhagini, atra pashyatu. Pradhamaha abhyasam, pradhamaha gruhapatha hasti, atra pancha vakhyani, karmapada sahita vakhyani prachayantu. Parantu... भवती यत् लिखितवती तेषु कर्मपदं नास्ति. परन्तु यदि भवती मम विद्यालयः इत्यस्मिन् विषये पञ्चवाक्यानि लिखितवती चेत् अधुना श्रावयतु. अधुना मम विद्यालयः इत्यस्मिन् विषये वाक्यानि सन्ति चेत् अधुना पुनः एकवारं श्रावयतु. अधुना श्रावयतु.
ओके. मम विद्यालयः मद्रास् नगरे भारतदेशे अस्ति. ओके.
उत्तमम्.
अहं विद्यालयं गतवती. ओके. मम विद्यालयं विस्तीर्णमार्गे अस्ति. मम विद्यालयः विस्तीर्णमार्गे अस्ति. तस्य भवन्
भगिनी, अत्र अहं न अवगतवती, तदर्थं पृच्छामि. विस्तीर्णमार्गे अस्ति इत्युक्ते भवती किं वक्तुं?
ब्रोड् रोड् इट् वास् सिचुएटेड् आन् ब्रोड् रोड्.
अस्तु. विस्तीर्णमार्गे अस्ति. उत्तमम्.
तस्य भवन् विशालं स्थापयशास्त्रं सुन्दरं च. स्थापयशास्त्रम् ऐ लुक् टु टाप् आर्किटेक्चर् ऐ एम् नाट् श्योर्.
त्यजतु भगिनि, तत्र तस्मिन् वाक्ये तत् पदं त्यक्त्वा अन्यानि पदानि श्रावयतु. अन्यानि पदानि वदतु.
तस्य भवन् विशालं स्थापयशास्त्र सुन्दरं च.
तस्य भवनं विशालं
स्थापयत् शास्त्रम् आर्किटेक्चर्.
तत् त्यजतु भगिनि, अन्यं वाक्यं श्रावयतु.
सुन्दरं च. ऐ डोण्ट् नो, ऐ जस्ट् लुक्ड् इट् अप् सो ऐ डु नाट् नो.
इत्युक्ते भवती यत् उक्तवती तत् सम्यक् एव. इत्युक्ते तस्य विद्यालयस्य भवनं विशालम् अपि च सुन्दरं, तदेव भवती वक्तुम् इच्छति. अनन्तरं
मम कतिचन श्रेष्ठ क्षणानि मम विद्यालये अहं व्यतिक्रामति. मम कतिचन संश्रणे. ओके. श्रेष्ठक्षणानि मम विद्यालये अहं व्यतिक्रामति. ऐ हेव् स्पेण्ट् मै बेस्ट् सम् आफ् मै बेस्ट् मोमेण्ट्स् इन् मै स्कूल्.
अस्तु अनन्तरम्
ओके देन् ऐ रोट् अबौट् पुरतरः यादव होम्वर्क् भगिनि
इत्युक्ते इत्युक्ते यद्भवती उक्तवती विद्यालये मम विद्यालयः इत्यस्मिन् विषये यद्भवती लिखितवती तत्तु सम्यक् एव परन्तु अस्मिन् एतेषु वाक्येषु कर्मपदं नास्ति तदर्थमेव अहं किञ्चित् समीकृतवती आक्चुवलि दीस् सेण्टेन्सस् आर् फैन् बट् मै एक्स्पेक्टेशन् वास् ऐ रियलि वाण्ट् यु टु रैट् सेण्टेन्सस् वित् कर्मपदम् इन् इट्
ओके ओके
That is the reason I corrected you in the beginning. Uttamam bhagini. Anantaram, atra Umashankar Mahodaya, bhavatah parshve mama vidyalayaha, idyasmin vishaya vakyani santichet shravayatu.
Agam lekanim icchami.
Aham lekanim icchami. Tatra sarvanama padam yoji itva vadatu.
अगम् अगं तं लेखनीम् इच्छामि
तत्र तम् इति पदं सम्यक् वा
लेखनी
इति ईकारान्तपदं श्रीलिङ्गपदम् अस्ति चेत् तत्र सर्वनामपदं किं भवेत्
सर्वलाङ्गपदं का
किं भवितव्यम्
एताम्
वाच् उत्तमं समीकृत्य वदतु
अहम् एतां लेखनीम् इच्छामि
उत्तमम् एतां लेखनीम् इच्छामि उत्तमम् अनन्तरं अपि च इतोपि वाक्यानि
अहम् आपणं गच्छामि
तत्रापि सर्वनामपदं योजयतु
अहं तत् आपणं गच्छामि
सम्यक् नास्ति महोदय समीकरोतु
आपणं गच्छामि
उत्तमं वाक्यं तु उत्तमं
अहं तम् आपणं गच्छामि
उत्तमम् इदानीं सम्यक् अनन्तरम् गृहपाठविषये स्वस्य वाक्यैः विद्यालयस्य वर्णनं करोतु स्वस्य वाक्यैः भवतः विद्यालयस्य वर्णनं करोतु पञ्चवाक्यानि श्रावयतु
विद्यालयस्य वर्णनं विद्यालय
मम विद्यालयः इति विषयं स्वीकृत्य
विद्यालय पुरतः वृक्षां वृक्षस्य पुरतः वृक्षाः सन्ति
मम विद्यालयस्य पुरतः वृक्षाः सन्ति इत्युक्ते भवतः विद्यालयस्य वर्णनं करोतु इति एव अस्माकं गृहपाठः गृहपाठविषये भवतः विद्यालयस्य वर्णनं करोतु इति एव अहं दत्तवती वदतु मम विद्यालयस्य पुरतः वृक्षाः सन्ति अनन्तरं
मम विद्यालयं विशालाः सन्ति
वाक्यं समीकरोतु महोदय अत्र पदमस्ति विद्यालयः मम विद्यालयः अत्र विद्यालयः इति पदमस्ति अधुना किञ्चित् समीकृत्य वदतु
मम विद्यालयः विशालः अस्ति
उत्तमं मम विद्यालयः विशालः अस्ति उत्तमम् अग्रिमं वाक्यं
मम विद्यालये गणितं बोधयत् मम अध्यापिका मम अध्यापिका गणितं बोधयति
मम विद्यालये अध्यापिका गणितं बोधयति उत्तमम्
मम विद्यालये आरम्भ वेन् स्टार्टिङ्ग् वि अद् गीतं सुभाषितानि अर्चयति
इत्युक्ते मम विद्यालयस्य आरम्भसमये
मम विद्यालयस्य आरम्भसमये सुभाषिणं सुभाषितानि वाचयति
सुभाषितानि वाचयति उत्तमं स्वस्य वाक्ये महोदय स्वस्य वाक्यैः वदतु ऐ एम् एक्स्पेक्टिङ्ग् यू टु रैट् आल् आफ़् यू इन् युवर् ओन् सेण्टेन्सस् क्रियेट् युवर् ओन् सेण्टेन्सस् देट् इस् द ओन्ली वे टु प्राक्टिस् देट् इस् द ओन्ली वे टु गेट् बेटर् अट् दिस् लेङ्ग्वेज् उत्तमं महोदय धन्यवादः अत्र सुबरमहोदय भवतः पार्श्वे वाक्यानि सन्ति वा अत्र मम विद्यालयः इत्यस्मिन् विषये
अस्ति परं कर्मपदं नास्ति
त्यजतु महोदय तत् त्यजतु कर्मपदं नास्ति चेदपि श्रावयतु किमर्थं चेत् तत्र एतत्तु द्वितीयः भागः इत्युक्ते प्रथमभागः कर्मपदसहितवाक्यानि परन्तु एतत्तु द्वितीयः विषयः वदतु श्रावयतु
मम ग्रामे उन्नतविद्यालयः दशाधिकशतवर्षं भवति विद्यालयं पार्श्वे शिशुकुल्याः सन्ति
विद्यालयस्य पार्श्वे
विद्यालयस्य पार्श्वे त्रिषु कुल्याः सन्ति
कुल्याः सन्ति वा
आम्
कुल्याः सन्ति अत्र पश्यतु महोदय कुल्याः सन्ति इत्युक्ते अत्र तत्र संख्या अपि स्त्रीलिङ्गे भवतु
त्रिषु स्त्रीलिङ्गं वै
अत्र पश्यतु तिस्रः तिस्रः स्त्रीलिङ्गे तिस्रः भवति परन्तु पुंलिङ्गे त्रयः नपुंसकलिङ्गे त्रीणि अधुना समीकृत्य वदतु तदेव वाक्यं
विद्यालयस्य पार्श्वे तिस्रः कुल्याः सन्ति
उत्तमं
विद्यालयः भवनम् अतिपुरातनमस्ति
विद्यालयस्य भवनं
अति पुरातनम् अस्ति
उत्तमं
मद्रास् अधिपति रूदर्फोर्ड् महाशयः इति विद्यालयं दर्शयति
पुनः एतत् एतं विद्यालयं सः दृष्टवान् वा भवान् किं वक्तुमिच्छति तत्र
आम् एतत् विद्यालयम्
एतं विद्यालयं
दर्शति
दर्शितवान् अथवा दृष्टवान्
दर्शितवान्
अथवा दृष्टवान् अत्र कः दृष्टवान् तस्य नाम किं
मद्रास् अधिपति रूदर्फोर्ड् महाशयः
सः एतं विद्यालयं दृष्टवान्
आम्
उत्तमम् अनन्तरं
तदेव
धन्यवादः महोदय उत्तमम् अधुना शङ्करन् महोदय भवान् वदति वा अत्र विद्यालयः इत्यस्मिन् विषये
आं भगिनि मम
मम विद्यालयं चेन्नै नगरे मध्ये अस्ति.
विद्यालयः चेन्नै नगरे अस्ति.
अस्ति. तत्र पार्श्वे क्रीडाङ्गणम् अस्ति. तत्र क्रीडाङ्गणे अनेकवृक्षाणि सन्ति.
अत्र महोदय वृक्षः
वृक्षः
अनेकाः वृक्षाः सन्ति.
ओ, अनेकाः वृक्षाः सन्ति.
कुत्र सन्ति?
मम विद्यालये पार्श्वे सन्ति.
मम विद्यालयस्य
पार्श्वे अनेकः वृक्षः सन्ति. अनेकाः वृक्षाः सन्ति.
किमर्थं तथा भवान् बहुवचने वक्तुमिच्छति? अथवा तत्र अनेकाः महोदय, अत्र क्षम्यताम्, अनेकाः न, अनेके वृक्षाः अपि.
अनेके वृक्षाः सन्ति. मम विद्यालयस्य पुरतः प्राचीनदेवालयम् अस्ति.
पुरतः देवालयम्
क्षम्यतां, देवालयः अस्ति.
अत्र महोदय, महोदय, अत्र एकं वक्तुमिच्छामि. वयं साधारणतया तेलुगुभाषायाम् अथवा तमिल्भाषायां वदामश्चेत् देवालयं विद्यालयं, किञ्चित् म्यूट् करोमि. यदि वयम् अस्माकं प्रान्तीयभाषायां वदामश्चेत् देवालयं विद्यालयम् इति वदामः, परन्तु संस्कृतभाषायां तत्र पदमस्ति विद्यालयः अथवा कार्यालयः अथवा देवालयः, तथा पदं पुंलिङ्गे अस्ति, न तु नपुंसकलिङ्गे. यदि वयं विद्यालयम् अथवा देवालयम् इति वक्तुमिच्छामश्चेत् इत्युक्ते तत् पदं कर्मपदं भवति तत्र. आक्चुलि इन् अवर् रीजनल् लाङ्ग्वेजस् यूजुवलि से देवालयं अथवा ग्रन्थालयं कार्यालयम् इति वदामः, परन्तु दट् इस् नाट् द रैट् वर्ड् इन् संस्कृत्. वि आर् सपोस् टु से देवालयः, कार्यालयः, ग्रन्थालयः, परन्तु कर्मपदं कृत्वा, इफ् वी वाण्ट् टु यूस् दट् सेम् वर्ड् एस् ए आब्जेक्ट् आफ् द सेण्टेन्स्, देन् ओन्ली यु आर् अलौड् टु से देवालयं, कार्यालयं, ग्रन्थालयम् इति वक्तुं शक्नुमः. इत्युक्ते ग्रन्थालयम् इति पदं कर्मपदं भवति, इत्युक्ते द्वितीयविभक्तौ अस्ति. तत्र पदमस्ति देवालयः अथवा ग्रन्थालयः. अधुना वदतु महोदय, शङ्करन् महोदय.
अस्ति. मम विद्यालयस्य मम विद्यालये अनेकशास्त्राणि बोधयन्ति. अनेकानि शास्त्राणि बोधयन्ति.
के बोधयन्ति?
आचार्याः बोधयन्ति.
उत्तमम्.
आचार्याः बोधयन्ति. तत्र शास्त्रस्य नामः व्याकरणं, मीमांसा, वेदान्ता, ज्योतिषं, गणितम्.
अत्र पश्यतु महोदय, सर्वे शृण्वन्तु. अत्र शास्त्रस्य नाम,
ओ, शास्त्रस्य नाम,
अत्र पश्य, अत्र एकवारं शृणोतु महोदय. अत्र पदमस्ति नाम.
मम
अत्र पश्यतु महोदय, शृणोतु किञ्चित्. अत्र शास्त्रस्य नाम, तत्र नामः इति न वदामः. किमर्थम्? अस्माकम् अभ्यासपुस्तके प्रथमे पुटे वयं ज्ञातवन्तः, किं भवतः नाम, किं भवत्याः नाम किम् इति वदामः. तत्र विसर्गः नास्ति. किमर्थमित्युक्ते तत्पदं नाम एव. किमर्थमित्युक्ते तत्र नाम इति पदं नकारान्तपदम् अथवा हलन्तपदं, तस्य मूलरूपमस्ति नामन्. प्रथमाविभक्तौ रूपाणि सन्ति नाम, नामनी, नामानि, तथा भवति. इत्युक्ते अत्र शास्त्रस्य नाम गणितं, शास्त्रस्य नाम व्याकरणं, शास्त्रस्य नाम मीमांसा, तथा वक्तव्यं. नामः इति पदं तत्र असमीचीनं पदं, तत्र विसर्गः नास्ति, केवलं नाम. भवतः नाम किं, भवत्याः नाम किं, तथा एव अष्टोत्तरशतनामानि. अधुना वदतु महोदय.
भगिनी, एकम् एकं सन्देहं तत्र अस्ति. शास्त्रस्य नाम इति एकवचनं, गणितम् एकवचनं. सेम् इफ् ऐ वाण्ट् यूस् इन् बहुवचनं, अनेकशास्त्राणि केन् ऐ यूस् लैक् दट्? अनेकशास्त्राणि बोधयन्ति,
अनेक शास्त्राणि बोधयन्ति, आचार्याः शास्त्राणि बोधयन्ति, तदभवत्. परन्तु भवान् तत्र आचार्याः बोधयन्ति, परन्तु शास्त्राणां नामानि भवान् वक्तुं इच्छति. शास्त्राणां नामानि भवान् वक्तुम् इच्छति. अधुना वदतु.
शास्त्राणां नामानि इद बहुवचनं, शास्त्राणां नामानि ज्योतिषं, मीमांसा, व्याकरणम् इत्यादि इत्यादीनि शास्त्राणि
बोधयन्ति तत्र
तत्र विद्यालये बहु ग्रन्थालयः सन्ति अस्ति
ग्रन्थालयः अस्ति, परन्तु ग्रन्थालयः बृहान् अस्ति,
बृहान् अस्ति.
अत्र पश्यन्तु सर्वे, अत्र बृहत् पदं त्रिषु लिङ्गेषु भवति. बृहत् इति पदं विशेषणं, यदि एकं पदं विशेषणं पदमस्ति चेत् त्रिषु लिङ्गेषु भवन्ति रूपाणि. कथम् इत्युक्ते पुंलिङ्गे बृहान् इति वदामः, बृहान् ग्रन्थालयः अस्ति. बृहती, अत्र बृहती इति बृहत् फलमस्ति, अथवा बृहत् भवनमस्ति. यदि नपुंसकलिङ्गे वदामश्चेत् बृहत् इति वदामः, पुंलिङ्गे वदामश्चेत् बृहान्, यदि स्त्रीलिङ्गे वदामश्चेत् बृहती. अत्र बृहती महिला इति न वदामः, परन्तु स्त्रीलिङ्गपदं किम् अत्र, अत्र बृहती संख्या, संख्या इति पदम् आकारान्त स्त्रीलिङ्गपदं, परन्तु अत्र इफ् देर् इस् अ बिग् नम्बर् देन् वी हाव् टु से तत्र बृहती संख्या लिखितमस्ति अस्मिन् अभ्यासपुस्तके. एका संख्या अस्ति, परन्तु सा संख्या बृहती संख्या इति वदामः. महोदय, शङ्करन् महोदय, अत्र भवतः विद्यालये बृहान् भवतः बृहान्
ग्रन्थालये बृहान् अस्ति,
भवतः विद्यालये बृहान् ग्रन्थालयः अस्ति,
बृहान् ग्रन्थालयः अस्ति. तत्र ग्रन्थालये अनेकानि पुस्तकानि सन्ति.
उत्तमम्.
आचार्य लैब्ररियन् नाम लैब्ररियन् वाट् हौ टु से मेडम् लैब्ररियन्
ग्रन्थालय
लैब्ररियन् ग्रन्थालय
अधुना अहं न स्मरामि महोदय, अहं दृष्ट्वा वदामि. वदतु.
तत्र ग्रन्थालय कार्यकर्ता एक आचार्य अस्ति एकः आचार्य अस्ति तत् सः अनेह शास्त्रं
बहुशास्त्रपारङ्गतः वा
आम् बहुशास्त्रपारङ्गतः आं भगिनि
उत्तमं
बहुशास्त्रपारङ्गतः बहुशास्त्रपारङ्गतः तस्मात् तत् आचार्याः अनेक
वक्तुं
शक्नोति
अनेकान् विषयान् वक्तुं शक्नोति
उत्तमं छात्रा यः
वदतु
आचार्यस्य तत्र आचार्यस्य ज्ञानं शास्त्रज्ञानं अपरिमितम्
ओ तस्य ज्ञानम् अपरिमितम् उत्तमम् इत्युक्ते सः अनेकान् विषयान् जानाति
आम् जानाति
सः अनेकान् विषयान् जानाति अपि च तस्मिन् तेषु विषयेषु बहु ज्ञानमस्ति
आम् विराम विद्यालयस्य विरामः समये अनेकछात्राः तत्र आचार्याः समीपे अनेकविषयाणि चर्चयन्ति
अनन्तरं तावदेव
चर्चयन्ति
उत्तमं महोदय अधुना अग्रे गच्छेम इदानीं पर्यन्तं वयं किञ्चित् करोमि अत्र इदानीं पर्यन्तं वयं गृहपाठविषये एव चिन्तनं कृतवन्तः अधुना वयं किञ्चित् अभ्यासपुस्तके किं दत्तमस्ति इति पश्याम अत्र सर्वे अभ्यासपुस्तके अत्र 8.1 भागे एकत्रिंशत्तमे पुटे इत्युक्ते 31 पेज् एकत्रिंशत्तमे पुटे तत्र किमस्ति इति किञ्चित् पश्याम अत्र अस्मिन् चित्रे किमस्ति अत्र लक्ष्मी भगिनी भवत्याः पार्श्वे पुस्तकमस्ति वा
आं भगिनि
अत्र 8.1 भागे अत्र किमस्ति किञ्चित् पठतु
सः केशवः केशवस्य पुरतः शतकः अस्ति तस्य पृष्ठतः वसतिमन्दिरम् अस्ति तस्य दक्षिणतः देवालयः अस्ति तस्य वामतः वृक्षः अस्ति देवालयस्य उपरि कलशः अस्ति शतकस्य अधः शुनकः अस्ति
तत्र अपदानि अपि पठतु अत्र अधोभागे
पुरतः वामतः उपरि पृष्ठतः दक्षिणतः अधः
उत्तमं भगिनि अत्र यानि वाक्यानि दत्तानि भवती पठितवती परन्तु तेषां विषये किञ्चित् चिन्तनं कुर्मः अधुना अत्र चित्रमस्ति अस्मिन् चित्रे अत्र यः शाकविक्रेता अथवा फलविक्रेता भवती किं चिन्तयति अत्र शाकविक्रेता अस्ति वा फलविक्रेता अस्ति वा उत्तमम् अत्र एकः फलविक्रेता अस्ति विक्रेता इति पदं ऋकारान्तपदं फलविक्रेता अस्ति परन्तु तस्य नाम किं
केशवः
अत्र सः अत्र प्रथमं वाक्यं सर्वे शृण्वन्तु अत्र प्रथमं वाक्यमस्ति सः केशवः अत्र केशवः कः कस्य नाम केशवः कस्य नाम केशवः भगिनी वदतु कस्य नाम फलविक्रेतुः नाम
केशवः.
अत्र पुरुषः एकः पुरुषः अस्ति, सः एव फलविक्रेता, तस्य नाम केशवः. अनन्तरं केशवस्य पुरतः कः अस्ति, किमस्ति केशवस्य पुरतः, किमस्ति
केशवस्य पुरतः? शटकः अस्ति.
शकटस्य पृष्ठतः कः अस्ति?
वसतिमन्दिरम् अस्ति.
अत्र पश्यतु भगिनि, अहं किं पृष्टवती? विपरीतक्रमेण पृष्टवती. ऐ आस्क्ड् यू आपोसिट्लि. इन् द रिवर्स् वे ऐ आस्क्ड्. केशवस्य पुरतः शकटः अस्ति, परन्तु शकटस्य पृष्ठतः कः अस्ति?
केशवः अस्ति.
केशवः अस्ति. अधुना वसतिमन्दिरमपि अस्ति. उत्तमं. द्वितीयं वाक्यं वदतु.
तस्य पृष्ठतः वसतिमन्दिरम् अस्ति.
अत्र तस्य पृष्ठतः वसतिमन्दिरम् अस्ति इति लिखितमस्ति, परन्तु अत्र तस्य इत्युक्ते कस्य?
केशवस्य.
उत्तमं. केशवस्य पृष्ठतः किमस्ति?
वसतिमन्दिरम् अस्ति.
वसतिमन्दिरस्य पुरतः कः अस्ति?
केशवः अस्ति.
केशवः अस्ति. उत्तमम्. इत्युक्ते वसतिमन्दिरस्य पुरतः केशवः अत्र अस्ति. अनन्तरं तस्य दक्षिणतः देवालयः अस्ति इति वाक्यमस्ति. कस्य दक्षिणतः देवालयः अस्ति?
वसतिमन्दिरस्य.
वसतिमन्दिरस्य
दक्षिणतः देवालयः अस्ति.
देवालयस्य वामतः किमस्ति?
वृक्षः अस्ति.
देवालयस्य वामतः वृक्षः अस्ति. अनन्तरम् अग्रिमं वाक्यं.
देवालयस्य उपरि कलशः अस्ति.
कलशस्य अधः नो, तथा न वक्तव्यं. देवालयस्य उपरि कलशः अस्ति. अनन्तरं
शकटस्य अधः शुनकः अस्ति.
अत्र भगिनी, अत्र एतेषु वाक्येषु अत्र पदानि सन्ति. शकटः, वसतिमन्दिरं, देवालयः, कलशः, शुनकः इति पदानि सन्ति. अपि च वृक्षः अस्ति. षट् पदानि सन्ति. एतेषु पुंलिङ्गपदानि कानि, नपुंसकलिङ्गपदानि कानि?
केशवः पुल्लिङ्गः, शकटः नपुंस पुल्लिङ्गः.
शकटः इत्युक्ते
कार्ट्.
कार्ट्, उत्तमं. वसतिमन्दिरम् इत्युक्ते
हौस्, हौस् लिविङ्ग् हौस् समथिङ्ग्,
कैण्ड् आफ् हास्टेल् कैण्ड् आफ् हास्टेल्. अनन्तरं अत्र पुंलिङ्गपदानि कानि?
केशवः, वृक्षः,
वृक्षः, देवालयः,
देवालयः अधः,
कलशः,
कलशः, शकुनः, शुनकः.
शुनकः इत्युक्ते
रुण.
शुनकः, शुनकः इत्युक्ते कः वदति? अत्र शङ्करन् महोदय वदति वा शुनकः इत्युक्ते? शुनकः इत्युक्ते डाग् भगिनि. अत्र अत्र पश्यतु भगिनि, शकटः, देवालयः, कलशः, शुनकः, एतानि पदानि पुंलिङ्गपदानि. परन्तु अत्र एकमेव पदमस्ति, वसतिमन्दिरम् इति पदमस्ति. तत्तु नपुंसकलिङ्गे अस्ति. भवती अत्र एकं विषयम् अवगतवती वा? अत्र पुरतः, पृष्ठतः, दक्षिणतः, वामतः, उपरि, अधः, एतानि पदानि नूतनानि पदानि. परन्तु तेषां पुरतः सर्वदा षष्टिविभक्तेः उपयोगम् एव कुर्मः. तत् भवती अवगतवती वा अत्र? Did you understand?
Yes, I understand.
Suchitra bhagini, vadatu.
All the directions, these are all nūtana napumsaklingam or pullingam. It's all pullingam, right?
Atra bhagini bhavati eva vadatu. Atra pumlinga padani kani.
सः केशवः पुरतः शकटः.
न न भगिनी भगिनी अत्र पश्यतु, सर्वे शृण्वन्तु. अत्र पुरतः, पृष्ठतः, दक्षिणतः, वामतः, अधः, उपरि, तत्र विसर्गः अस्ति. परन्तु एतानि पदानि अव्ययानि. अत्र शृणोतु भगिनि, अत्र अन्ते विसर्गः अस्ति परन्तु एतानि पदानि पुंलिङ्गपदानि न सन्ति. दे आर् नाट् पुंलिङ्गपदानि, दे आर् जस्ट् अव्यय. एतानि पदानि अव्ययानि, अव्ययम् इति वदामः. परन्तु अत्र पुंलिङ्गपदानि कानि? शकटः, देवालयः, कलशः, वृक्षः, शुनकः. भवती एव वदतु, शकटस्य पृष्ठतः कः अस्ति?
शकटस्य पृष्ठतः वसतिमन्दिरम् और् केशव अस्ति.
शकटस्य पृष्ठतः केशवः अस्ति. अपि च वसतिमन्दिरस्य पुरतः कः अस्ति?
केशव अस्ति.
भवती जानाति वा पुरतः इत्युक्ते किं?
फ्रण्ट्.
उत्तमम्. अधुना मम पार्श्वे शृणोतु, अधुना मम पुरतः एकं सङ्गणकम् अस्ति, अधुना मम पुरतः एका दूरवाणी अस्ति, अधुना मम पुरतः अभ्यासपुस्तकम् अस्ति, मम पृष्ठतः एकं चित्रम् अस्ति. इत्युक्ते अत्र पुरतः इत्युक्ते वदतु, पुरतः इत्युक्ते किं? सर्वेषां कृते
पुरतः आगे फ्रंट.
पृष्ठतः इत्युक्ते
पीचे बैक.
उत्तमं. दक्षिणतः इत्युक्ते
राइट.
वामतः
लेफ्ट.
अपि च देवालयस्य उपरि किम् अस्ति अत्र? कः?
कलशः अस्ति.
कलशः अस्ति. शकटस्य अधः कः अस्ति?
शुनकः अस्ति.
शुनकः अस्ति. इत्युक्ते अत्र वयं किम् अवगन्तुं शक्नुमः इत्युक्ते, हियर् वाट् इस् द मोस्ट् इम्पार्टेण्ट् पायिण्ट् दट् वी नीड् टु अण्डर्स्टाण्ड् हियर् ईस् अत्र पुरतः, पृष्ठतः, वामतः, दक्षिणतः, अधः, उपरि, एतेषां पदानां पूर्वं सर्वदा षष्टिविभक्तेः उपयोगम् एव कुर्मः. तदर्थमेव अत्र केशवस्य पुरतः, शकटस्य पृष्ठतः, अपि च देवालयस्य दक्षिणतः, देवालयस्य वामतः, देवालयस्य उपरि, देवालयस्य अधः अथवा शकटस्य अधः इति वदामः. इत्युक्ते वयं पूर्वमेव ज्ञातवन्तः षष्टिविभक्तेः विषये, वयं किञ्चित् पठितवन्तः. अत्रापि षष्टिविभक्तौ एकवचनरूपं दत्तमस्ति. इत्युक्ते एतेषां पदानां पुरतः सर्वदा षष्टिविभक्तेः उपयोगम् एव कुर्मः. तदेव अत्र अवगन्तव्यम्. अहं वदामि. धन्यवादः भगिनी. अत्र सुबार महोदय, भवान् करोति वा अत्र? अत्र यदि सीतारामलक्ष्मणः वनं गतवन्तः, तदा कस्य पुरतः अथवा कस्याः पुरतः कः गतवान्? सीतारामलक्ष्मणः कस्य पुरतः अथवा वाक्यानि रचयतु महोदय?
सीतारामलक्ष्मणः वनं गतवान्,
वनं गतवन्तः, ते वनं गतवन्तः,
वनं गतवन्तः,
कस्य पुरतः कः गतवान् वदतु, किञ्चित् ऊहां करोतु. प्रथमतया
रामः
प्रथमतया लक्ष्मणः गच्छति, लक्ष्मणः गतवान्,
प्रथमतया लक्ष्मणः गतवान्, लक्ष्मणः लक्ष्मणस्य पृष्ठतः रामः
गतवान् तस्य पृष्ठतः
सीतां गतवान्,
सीता गतवती,
सीता गतवती.
अधुना वदतु, तान्येव वाक्यानि वदतु.
प्रथमस्य लक्ष्मणः
प्रथमतया लक्ष्मणः अग्रे गतवान्,
प्रथमतया लक्ष्मण अग्रे गतवान्,
तस्य पृष्ठतः
रामः गतवान्,
तस्य पृष्ठतः
सीता गतवती,
सीतायाः पुरतः कः गतवान्,
सीतायाः पुरतः रामः गतवान्
कस्याः पुरतः रामः वनं गतवान्,
लक्ष्मणस्य पुरतः रामस्य गतवान्,
सीतायाः इत्युक्ते कस्याः पुरतः इत्युक्ते कस्याः पुरतः रामः अस्ति, सीतायाः पुरतः रामः अस्ति, रामस्य पुरतः लक्ष्मणः अस्ति, तथा एव अस्माकं तथा एव कार्यालये अथवा गृहे कस्य पुरतः किम् अस्ति इति वयं किञ्चित् परिशीलयित्वा वयं किञ्चित् कानिचन वाक्यानि रचयितुं शक्नुमः. कार्यालये तत्र उत्पेटिका अस्ति, उत्पेटिकायाः पुरतः किम् अस्ति, उत्पेटिकायाः पृष्ठतः किम् अस्ति, उत्पेटिकायाः वामतः किमस्ति, दक्षिणतः किमस्ति, उत्पीठिकायाः उपरि किमस्ति, उत्पीठिकायाः अधः किमस्ति, तथा वयं वाक्यानि रचयितुं शक्नुमः. तथा एव यदि वयं देवालयं गच्छामश्चेत् देवालये अपि तथा वक्तुं शक्नुमः. किञ्चित् वदतु महोदय, देवालयं परिशीलयामश्चेत् तत्र पुरतः पृष्ठतः इति पदानि योजयित्वा वाक्यानि रचयतु.
देवालयस्य पुरतः ध्वजस्तम्भः अस्ति.
उत्तमम्.
देवालयः देवालयस्य इन्सैड्
अनन्तरं गच्छामः. तत्र तदपि पदमस्ति, अन्तः बहिः इति पदमपि अस्ति, परन्तु अधुना केवलं वामतः दक्षिणतः अधः उपरि अपि च पुरतः पृष्ठतः केवलम् एतानि षट् पदानि योजयित्वा वाक्यं रचयतु.
देवालयस्य वामतः वेङ्कटेश्वर आलयमस्ति, शिवालयः वामतः वेङ्कटेश्वरालयमस्ति,
शिवालयस्य वामतः वेङ्कटेश्वरालयः अस्ति. अस्ति. उत्तमं महोदय. अत्र राजीव्सिङ्ग् महोदय, भवान् वदतु अत्र यदि किमपि कामपि पाठशालायां पाठशालां द्रष्टुमिच्छति द्रष्टुं गच्छति चेत् भवान् पाठशालायां कस्य पुरतः किम् अस्ति तत् किञ्चित् वदतु. राजीव् महोदय, राजीव् वदतु.
आं भगिनि, पाठशालायस्य पुरतः प्लेग्रौण्ड्
क्रीडाङ्गणं
क्रीडाङ्गणम् अस्ति.
तदेव वाक्यं किञ्चित् समीकृत्य वदतु. अत्र भवान् किम् उक्तवान् अत्र, तदेव वाक्यं पुनः वदतु. तदेव वाक्यं तत्र भवान् किम् उक्तवान् पाठशाला
पाठशालायश्च
तत्र समीचीनं अत्र अत्र पाठशाला तस्य पाठशाला इति पदस्य षष्टिविभक्तेः रूपं तत्र रचनीयं तत्र योजनीयं. पाठशाला इति पदं स्त्रीलिङ्गपदम्, आकारान्तस्त्रीलिङ्गपदम्. अतः यदि वयं ग्रन्थालयः इति वदामश्चेत् ग्रन्थालयस्य इति समीचीनं,
पाठशालायाः
उत्तमं, पाठशालायाः पृष्ठतः
पाठशालायाः पृष्ठतः
किमस्ति साधारणतया किं भवति पाठशालायाः पृष्ठतः साधारणतया वृक्षाः सन्ति
वृक्षाः सन्ति
पाठशालायाः पुरतः किं किं भवति किमस्ति
क्रीडाङ्गण अस्ति
क्रीडाङ्गणमस्ति पाठशालायाः वामतः किमस्ति किञ्चित् ऊहां करोतु पाठशालायाः वामतः किमस्ति
वामतः
वामतः इत्युक्ते लेफ्ट् हेण्ड् सैड्
ओके लेफ्ट् हेण्ड् सैड् वामतः
किं भवितुं शक्नोति साधारणतया पाठशालायां
कार्यालयः अस्ति
कार्यालयः अस्ति इत्युक्ते पाठशालायाः वामतः कार्यालयः
कार्यालयः अस्ति
पाठशालायाः दक्षिणतः किमस्ति
दक्षिणतः पाठशालायाः पाठशालायाः दक्षिणतः भोजनालयः अस्ति
उत्तमं भोजनालयः अस्ति अधुना अहं पृच्छामि भवतः पुरतः किम् अस्ति
भगिनि
भवतः पुरतः इन् फ्रण्ट् आफ् यू भवतः पुरतः किम् अस्ति
अहं मम पुरतः
किमपि उत्पीठिका
उत्पीठिका अस्ति
उत्तमं भवतः पृष्ठतः किम् अस्ति
मम पृष्ठतः
किमपि आसन्दः अस्ति
आसन्दः अस्ति
मम पुरतः आसन्दः अस्ति यदि भवान् जानाति वा अहं शब्दस्य षष्टिविभक्तेः रूपम् एव किम् अहं शब्दस्य षष्टिरूपं मम इत्युक्ते इत्युक्ते वयं पुरतः पूर्वमेव उक्तवती अहं पुरतः पृष्ठतः वामतः दक्षिणतः अधः उपरि एतानि पदानि योजयित्वा वाक्यं रचयितुमिच्छामश्चेत् तदा एतेषां पदानां पूर्वं षष्टिविभक्तेः उपयोगम् एव कुर्मः मम पुरतः सङ्गणकम् अस्ति मम पृष्ठतः आसन्दः अस्ति मम वामतः द्वारमस्ति मम दक्षिणतः वातायनम् अस्ति इति वदामः मम इति पदं अहं शब्दस्य षष्टिविभक्तेः रूपं. यदि भवान् चिकित्सालयं हास्पिटल् चिकित्सालयं गच्छति चेत् तत्र वैद्यस्य पुरतः के सन्ति? Whom do you find in front of a doctor? Vaidyasya purataha.
Utpedika. Utpedika hasti.
Utpedika. No chet tat tatra rugnaha santi. Rugnaha ichukte?
Rugnaha.
Rugnaha ichukte?
It's a patient.
Uttama. Rugnaha ichukte patient. Chikitsalaye. वैद्यस्य पुरतः रुग्णाः सन्ति. तथा एव अध्यापकस्य पुरतः के सन्ति?
छात्रः.
छात्राः सन्ति. तथा एव नर्तक्याः पुरतः के सन्ति? के भवितुम् अर्हन्ति? Whom do you expect to see? नर्तक्याः पुरतः नर्तकी जानाति वा? नर्तकी. नर्तक्याः पुरतः पूरयतु.
नर्तक्याः पुरतः स्टेज्.
नर्तक्याः पुरतः प्रेक्षकाः सन्ति.
प्रेक्षकाः सन्ति.
उत्तमं महोदय, धन्यवादः. अनन्तरम् अत्र अत्र लक्ष्मी भगिनी अत्र भवती एव पठतु. अत्र 8.2 आभागे द्वात्रिंशत्तमे पुटे अत्र अभ्यासः अस्ति, तदभ्यासं कुर्मः. पठतु.
एतत् चित्रं पश्यतु. अनन्तरम् एतानि वाक्यानि शुद्धानि अशुद्धानि वा इति लिखतु. गृहस्य पुरतः वृक्षः अस्ति.
शुद्धं वा अशुद्धं वा?
शुद्धम्.
अत्र किञ्चित् प्रतिध्वनिः अस्ति, किमर्थम्? अत्र भगिनि पठतु, अधुना पठतु.
गृहस्य वामतः उद्यानम् अस्ति.
सम्यक् वा? अत्र एव दत्तमस्ति अशुद्धम् इति. अशुद्धम् इति दत्तमस्ति, परन्तु भवती एव अत्र चित्रं पश्यतु. गृहस्य पुरतः वृक्षः अस्ति, तत्तु सम्यक्. गृहस्य वामतः उद्यानम् अस्ति इति लिखितमस्ति, परन्तु वामतः किम् अस्ति अस्मिन् चित्रे? किं द्रष्टुं शक्नोति भवती? वाट् यू केन् फैण्ड् आन् द लेफ्ट् सैड् आफ् द हौस्? अहं चिन्तयामि तत्र
वृक्षः अस्ति.
गृहस्य वामतः उद्यानं नास्ति, परन्तु अत्र किमपि. अनन्तरं पठतु.
बालकः वृक्षस्य उपरि अस्ति. अशुद्धं.
शुद्धं किं समीकृत्य वदतु.
बालकः वानरः वृक्षस्य उपरि अस्ति.
वृक्षस्य उपरि वानरः अस्ति, न तु बालकः. बालकः कुत्र अस्ति? बालकः इत्युक्ते बालकः पुर अधः, नो चेत् समीपे अस्ति. समीपे अस्ति. अनन्तरं
वृक्षस्य अधः वृद्धः अस्ति.
वृक्षस्य अधः वृद्धः अस्ति. वृद्धः अस्ति वा वाक्यम्?
अशुद्धम्.
अशुद्धं. समीकृत्य वदतु.
वृक्षस्य अधः
अधः बालकः अस्ति.
बालकः अस्ति
वृक्षस्य अधः बालकः, न तु वृद्धः. अनन्तरं
गृहस्य पृष्ठतः मार्गः अस्ति.
वाक्यं सम्यक् वा?
I don't know what is at the back of the thing.
अत्र गृहस्य पृष्ठतः मार्गः अस्ति इति उक्तमस्ति. तत्र मार्गः इत्युक्ते रोड्, परन्तु तत्र मार्गः न दृश्यते, परन्तु तत्र एकः पर्वतः अथवा गिरिः. अशुद्धं शुद्धं वाक्यं किं?
गृहस्य पृष्ठतः गिरिः अस्ति.
उत्तमं, गिरिः अथवा पर्वतः अस्ति. अग्रिमं वाक्यं, षष्ठं वाक्यं.
बालकस्य हस्ते नारिकेलफलम् अस्ति. अशुद्धम्.
अशुद्धं किम्?
बालकस्य हस्ते लेखनी अस्ति.
दण्डः अस्ति, न तु लेखनी. बालकस्य हस्ते दण्डः अस्ति. दण्डः किमर्थम्?
स्टिक्.
स्टिक् किमर्थम्? तस्य हस्ते दण्डः अस्ति. किमर्थम्? किमर्थमित्युक्ते अत्र वृक्षस्य उपरि नारि तत्र एकः वानरः अस्ति. वानरं दण्डयितुं तस्य हस्ते दण्डः अस्ति. वानरं ताडयितुम् अथवा वानरं दण्डयितुं तस्य हस्ते दण्डः अस्ति. अनन्तरं गृहस्य पुरतः एका अन्या प्राणिः अस्ति, तस्य नाम किं भगिनि? किं वदामः संस्कृतभाषायां? कुक्कुटः. वाक्यं रचयतु.
गृहस्य पुरतः
गृहस्य पुरतः कुक्कुटः अस्ति.
कुक्कुटः अस्ति
तथा एव भवत्याः पुरतः किमस्ति, पृष्ठतः किमस्ति इति किञ्चित् चिन्तयित्वा वाक्यानि रचयितुं शक्नोति भवती. तथा एव भवत्याः वामतः अथवा दक्षिणतः किं किम् अस्ति इति किञ्चित् दृष्ट्वा परिशीलयित्वा वाक्यानि रचयितुं शक्नुमः. अधुना अहं पृच्छामि भगिनि, अहं वदामि, अधुना वयम् अधः उपरि इत्यस्मिन् विषये किञ्चित् पठामः. आकाशः कुत्र अस्ति? आकाशः
अधः अस्ति.
आकाशः भगिनि
उपरि अस्ति.
आकाशः उपरि अस्ति, उत्तमं. सूर्यः कुत्र अस्ति?
उपरि अस्ति.
उपरि अस्ति. चन्द्रः कुत्र अस्ति?
चन्द्रः उपरि अस्ति.
ताराः कुत्र सन्ति?
ताराः उपरि सन्ति.
उत्तमम्. अपि च भूतलं कुत्र अस्ति? भूतलं साधारण अधः अस्ति. अधः. अपि च यदि वयं पिपीलिकाः पश्यामश्चेत् पिपीलिकाः साधारणतया कुत्र सन्ति? उद्यानवनेषु इत्युक्ते साधारणतया अधः. अहं चिन्तयामि उपरि अधः इत्यस्मिन् विषये भवती जानाति, इत्युक्ते किम् इति भवती जानाति इति अहं चिन्तयामि. उत्तमं भगिनि. अनन्तरम् अत्र पुनः एकवारम् अत्र उमाशङ्कर् महोदय, भवान् किञ्चित् वदति वा अत्र? उमाशङ्कर् महोदय अस्ति वा अत्र? नो चेत् अत्र सुचित्रा भगिनी भवती करोति वा?
आं भगिनि.
अत्र अत्र पश्य साधारणतया गृह अन्तः बहिः इति पदद्वयमस्ति. मम पार्श्वे एकः चषकः अस्ति, चषके जलमस्ति, तदा किं वदामः? जलं कुत्र अस्ति?
चषकस्य बहिः
जलं भगिनि,
मम अन्तः अस्ति.
उत्तमम्. मम पार्श्वे एकः चषकः अस्ति, चषके जलमस्ति. अहं पृच्छामि, जलं कुत्र अस्ति? जलम् अन्तः अस्ति. जलम् अन्तः अस्ति. अपि च मम पार्श्वे घटः अस्ति, घटे जलमस्ति, इत्युक्ते अन्तः जलम् अस्ति. तथा एव नद्यां जलमस्ति, इत्युक्ते जलं तत्र नद्यां जलमस्ति इति वदामः. अधुना वयं किं कुर्मः, अन्तः बहिः इति पदद्वयं ज्ञातुमिच्छामश्चेत् अत्र त्रयस्त्रिंशत्तमे पुटे एकः अभ्यासः अस्ति, तं पठामः. अन्तः बहिः इत्यस्मिन् विषये किञ्चित् ज्ञातुं तदभ्यासं कुर्मः. भवती एव पठतु. अत्र 8.2 ई भागे किं दत्तमस्ति?
बालकः कुत्र अस्ति? बालकः बहिः अस्ति. बालिका कुत्र अस्ति? बालिका अन्तः अस्ति. मार्जालः कुत्र अस्ति?
भगिनी अत्र स्थगयतु. भवती अत्र चित्रं दत्तमस्ति, चित्रं पश्यति वा? चित्रं दृष्ट्वा एतानि वाक्यानि समीचीनानि वा न वा? डू यु थिङ्क् आर् दि सेण्टेन्सेस् आर् रैट्? अत्र बालकः कुत्र अस्ति?
बहिः अस्ति, गृहे बहिः अस्ति.
अत्र
बहिः अस्ति.
भगिनी भवती किञ्चित् प्रयत्नं कृतवती, परन्तु अत्र सर्वदा बहिः इति पदं योजयामश्चेत् बहिः इति पदात् पूर्वं साधारणतया पञ्चमी विभक्तेः उपयोगं कुर्मः. कथं कथमित्युक्ते गृहात् बहिः, गृहात् बहिः, विद्यालयात् बहिः इति वदामः. इत्युक्ते बहिः इति पदम् उपपदम् इति वदामः. इत्युक्ते बहिः इति पदं योजयामश्चेत् तस्मात् पूर्वं साधारणतया पञ्चमीविभक्तेः उपयोगं कुर्मः इति एकः नियमः. परन्तु अत्र केवलं किं दत्तमस्ति? बालकः बहिः अस्ति. बालकः कुत्र अस्ति? बालकः केवलं
गृहतः बहिः अस्ति.
उत्तमं, गृहतः बहिः अस्ति, तदपि समीचीनं. गृहात् बहिः अथवा गृहतः बहिः, इत्युक्ते इतोपि यु वाण्टेड् टु बि मोर् स्पेसिफिक्, दट् इस् द रीसन् यु आर् सेयिङ्ग् गृहात् बहिः अस्ति इति वक्तव्यं. बहिः इति पदस्य पूर्वं, पदात् पूर्वं पञ्चमीविभक्तेः उपयोगं कुर्मः साधारणतया. अत्र अस्मिन् चित्रे बालकः बहिः अस्ति, परन्तु बालिका कुत्र अस्ति?
अन्तः अस्ति.
मार्जालः कुत्र अस्ति?
बहिः अस्ति, मार्जालयः बहिः अस्ति.
पश्यतु भगिनी अत्र
मार्जालः
इत्युक्ते किम्?
मार्गं, रोड्?
न भगिनि, मार्जालः इत्युक्ते अत्र शङ्करन् महोदय भवान् वदति वा मार्जालः इत्युक्ते?
मार्जाल इत्युक्ते केट्, मार्जालः अन्तः अस्ति.
उत्तमम् उत्तमं महोदय. शुनकः कुत्र अस्ति?
शुनकः पुरतः.
शुनकः अत्र अस्मिन् चित्रे शुनकः बहिः अस्ति.
बहिः इत्युक्ते
उत्तमं बहिः अस्ति. इदानीं पर्यन्तं वयम् अन्तः बहिः इत्यस्मिन् विषये किञ्चित् पठितवन्तः, परन्तु समयः जातः. यदि भवन्तः इच्छन्ति चेत् कथां पठितुं शक्नुमः, नो चेत् अग्रिमे सप्ताहे मिलामः. परन्तु अधुना समयः जातः, अधुना विरमाम. अग्रिमे सप्ताहे पुनर्मिलामः. सर्वेषां धन्यवादः, शुभरात्रिः.
धन्यवादः, धन्यवादः भगिनी, धन्यवादः.
धन्यवादः.